अथ सप्तमः पाठः। भरतो भ्रातरमैत्तं चाब्रवीत्, अस्माकं पिता दशरथो मृतः, अहं तु राज्यं मात्रार्थितोऽपि न लभे, त्वं हि युवराज आसीः, ततो राज्यं लभस्वेति। रामस्तु प्रत्यवदत् अयोध्यां पुनरिः, तत्र च नृपो भ्रातुरर्थ एधि, अहं हि वने तिष्ठामि जानक्या सहेति।